ಶ್ರೀ ಆದಿನಾಥಾಯ ನಮೋಸ್ತು ತಸ್ಮೈ ಏನೋಪದಿಷ್ಟಾ ಹಠ ಯೋಗ ವಿದ್ಯಾ ವಿಭ್ರಾಜತೆ ಪ್ರೋನ್ನತ ರಾಜಯೋಗಂ ಆರೋಹಿಚ್ಛೋ ರತಿರೋಹಿಣೀವ. ಕಪಾಲ ಶೋಧನಂ ವಾತ ದೋಷಘ್ನಂ ಕ್ರಿಮಿ ದೋಷ ಹೃತ್ ಪುನಃ ಪುನರಿದಂ ಕಾರ್ಯಂ ಸೂರ್ಯಭೇದನಮುತ್ತಮಂ.
ಕಪಾಲ ಶೋಧನಂ ವಾತ ದೋಷಘ್ನಂ ಕೃಮಿ ದೋಷ ಹೃತ್ ಪುನಃ ಪುನರಿದಂ ಕಾರ್ಯಂ ಸೂರ್ಯಭೇದನಮುತ್ತಮಂ. ಕಪಾಲ ಶೋಧನಂ ವಾತ ದೋಷಘ್ನಂ ಕೃಮಿ ದೋಷ ಹೃತ್ ಪುನಃ ಪುನಃ ಇದಂ ಕಾರ್ಯಂ ಸೂರ್ಯಭೇದನಂ ಉತ್ತಮಂ.
ಅಯಂ ಶ್ಲೋಕಃ ಸೂರ್ಯಭೇದನ ಪ್ರಾಣಾಯಾಮಃ ಯಃ ಪ್ರಥಮಃ ಅಷ್ಟಕುಂಭಕೇಶು ಪ್ರಥಮಃ ತಸ್ಯ ಪ್ರಾಣಾಯಾಮಸ್ಯ ಪ್ರಯೋಜನಂ ಕಥಯತಿ. ಕಪಾಲ ಶೋಧನಂ, ಕಪಾಲಸ್ಯ ಶೋಧನಂ ಕರೋತಿ. ಕಪಾಲಂ ನಾಮ ಮಸ್ತಕ ಪ್ರದೇಶ, ಶಿರಃ ಪ್ರದೇಶ. ನಮ್ಮ ಅತ್ರ ಅಸ್ಥಿಭಾಗ ನ ಗೃಹೀತವ್ಯ. ಕಪಾಲ ಶಬ್ದಸ್ಯ ಅಸ್ಥಿ ಇತ್ಯರ್ಥ ಭವತಿ ಕಿಲ. ನಮ್ಮ ಸಾಮಾನ್ಯತಃ ಮುಖಮಂಡಲಂ ಇತಿ ಅರ್ಥಃ ಸ್ವೀಕರ್ತುಂ ಶಕ್ಯಃ. ಸೈನಸ್ ಇತಿ ಸಮಸ್ಯಾ ಭವತಿ ಕಿಲ ನಾಸಿಕಾಂ ಪರಿತಃ. ಕಪಾಲಭಾತಿ ಇತಿ ಯತ್ರ ಅಸ್ತಿ, ಕಪಾಲಭಾತಿ ಸಂಬದ್ಧತೆಯಾ ತದೇ ಉಕ್ತಂ. ಅತಃ ಕಪಾಲ ಶಬ್ದಸ್ಯ ಸಾಕ್ಷಾತ್ ತತ್ರ ಶಿರೋಗೋಲಃ ಅಸ್ತಿ ಕಿಲ, ಅಸ್ಥಿಗೋಲಃ ಸಹ ನ ಸ್ವೀಕರಣೀಯಃ. ಅಪಿತು ಮಸ್ತಕ ಪ್ರದೇಶಃ ಯತ್ರ ಇದಂ ಕಫಸ್ಯ ಸಂಚಯಃ ಭವತಿ ತತ್ಸ್ಥಾನಂ ಇತ್ಯರ್ಥಃ. ತಸೈವ ಕಪಾಲ ಶಬ್ದಸ್ಯ ಅರ್ಥಃ ಕಪಾಲಸ್ಯ ಶೋಧನಂ ಕರೋತಿ. ನಮ ಕಫದೋಷಸ್ಯ ವಿಮುಕ್ತಿಂ ಕಾರಯತಿ ತದೇವ ಕಪಾಲ ಶೋಧನಂ ಇತ್ಯಸ್ಯ ಅರ್ಥಃ. ಕಪಾಲ ಶೋಧನಂ ಇತ್ಯಸ್ಯ ಕಪಾಲೇನ ಯಃ ಶಿರೋಭಾಗಃ ಧಾರ್ಯತೆ ಸಹ ಇತಿ ಸ್ವೀಕರಣೀಯಂ. ನೈಗಟ್ಯಂ ತಾವಾನೇವ ಅರ್ಥಃ ಸ್ವೀಕರಣೀಯಃ. ಅತಃ ತದ್ ಕಪಾಲ ಶೋಧನಂ. ಅನಂತರಂ ವಾತ ದೋಷಘ್ನಂ, ವಾತಸ್ಯ ದೋಷಾಃ ಭವಂತಿ ಅಶೀತಿ ಪ್ರಕಾರಕಾಃ ವಾತದೋಷಾಃ ಭವಂತಿ ಇತಿ ಜ್ಯೋತ್ಸ್ನಾ ವ್ಯಾಖ್ಯಾತ. ನಮ್ಮ ಜ್ಯೋತ್ಸ್ನಾ ವ್ಯಾಖ್ಯಾಕಾರಃ ಕಥಯತಿ ಕಪಾಲ ಶೋಧನಂ ವಾತ ದೋಷಘ್ನಂ ಕ್ರಿಮಿ ದೋಷ ಹೃತ್. ಕ್ರಿಮಿಭ್ಯಃ ಯಃ ದೋಷಃ ಜಾಯತೆ ತೇಷಾಂ ದೋಷಾಣಾಮಪಿ ನಾಶನಂ ಕರೋತಿ. ಇದಾನೀಂ ಕ್ರಿಮಿ ನಾಮ ಲಘು ಕೀಟ ವಿಶೇಷಃ. ಕ್ರಿಮೀಣಾಂ ದೋಷಃ ಕುತ್ರ ಬಾಧತೆ ಮನುಷ್ಯಂ ಇತಿ ಚೇತ್, ಏತೇ ಕ್ರಿಮಯಃ ಕುತ್ರಸ್ಥಾಃ ಕ್ರಿಮಯಃ ಇತಿ ಚೇತ್, ತತ್ರ ವ್ಯಾಖ್ಯಾತ ಸ್ಪಷ್ಟೀಕರೋತಿ. ಕ್ರಿಮೀಣಾಂ ಉದರೇ ಜಾತಾನಾಂ, ನಮ್ಮ ಉದರೇ ಭವಂತಿ ಕಿಲ ಬಗ್ಸ್ ಇನ್ ದ ಅಬ್ಡೊಮನ್, ಉದರೇ ವಿದ್ಯಮಾನಾಂ ಕ್ರಿಮೀಣಾಂ ಕೀಟಾನಾಂ ದೋಷಃ ವಿಕಾರಃ ಯಃ ಭವತಿ ಗಟ್ ರೀಜಿಯನ್ ಮಧ್ಯೆ, ಗಟ್ ಪ್ರಾಬ್ಲಮ್ ಇದು ವದಂತಿ ಕಿಲ. ಸೋ ಅತ್ರ ಗಟ್ ರೀಜಿಯನ್ ಮಧ್ಯೆ ಯೇ ಕ್ರಿಮಯಃ ಭವಂತಿ ತೇಷಾಂ ಕ್ರಿಮೀಣಾಂ ವಿನಾಶನಂ ಕರೋತಿ. ಕಪಾಲ ಶೋಧನಂ ವಾತದೋಷಘ್ನಂ ಕ್ರಿಮಿದೋಷ ಹೃತ್. ಏತತ್ ಸರ್ವಂ ಕಿಂ ಕೇನ ಏತತ್ ಸರ್ವಂ ಸಾಧ್ಯತೆ ಇತಿ ಚೇತ್, ಸೂರ್ಯಭೇದನೇನ ಸಾಧ್ಯತೆ ಇತಿ ಉಚ್ಯತೆ. ಯತಃ ಸೂರ್ಯಭೇದನಂ ಏತತ್ ಸರ್ವಂ ಸಾಧಯತಿ. ಕಿಂ ಕಿಂ ಸಾಧಯತಿ ಸೂರ್ಯಭೇದನಂ?
ಕಪಾಲ ಶೋಧನಂ ವಾತದೋಷಾಣಾಂ ಹನನಂ ಕ್ರಿಮಿದೋಷಾಣಾಂ ಹನನಂ.
ಆಮ ಕ್ರಿಮೀಣಾಂ ನಿವಾರಣಂ ಕರೋತಿ ಕ್ರಿಮಿಗತ ದೋಷಾಣಾಂ ನಿವಾರಣಂ ಕರೋತಿ ಇತಿ. ಕ್ರಿಮಿಭ್ಯಃ ಏಕೇಪಿ ದೋಷಾಃ ಜಾಯಂತೆ ತಸ್ಯ ನಿವಾರಣಂ ಕರೋತಿ. ಅತಃ ಪುನಃ ಪುನಃ ಇದಂ ಕಾರ್ಯಂ, ಪುನಃ ಪುನಃ ಇದಂ ಕರ್ತವ್ಯಂ. ಕಿಂ ಕರ್ತವ್ಯಂ? ಸೂರ್ಯಭೇದನಂ. ಕಿಮರ್ಥ ಅತಃ ಏವ ಇದಂ ಉತ್ತಮಂ, ಯತಃ ಅನೇಕಾನಿ ಪ್ರಯೋಜನಾನಿ ಸಂತಿ ಅತಃ ಇದಂ ಉತ್ತಮಂ ಇತಿ. ಸೂರ್ಯಭೇದನಸ್ಯ ಇದಂ ವಿವರಣಂ. ಅಗ್ರಿಮ ಶ್ಲೋಕಃ ಷಟ್ ಪಾದಾಃ. ಸಹ ತತ್ರ ಉಜ್ಜಾಯಿ ಪ್ರಾಣಾಯಾಮಸ್ಯ ವಿವರಣಂ ಭವತಿ. ಮುಖಂ ಸಂಯಮ್ಯ ನಾಡೀಭ್ಯಾಂ ಆಕೃಷ್ಯ ಪವನಂ ಶನೈಃ ಯಥಾಲಗತಿ ಕಂಠಾತ್ತು ಹೃದಯಾವಧಿ ಸಸ್ವನಂ ಪೂರ್ವವತ್ ಕುಂಭಯೇತ್ ಪ್ರಾಣಂ ರೇಚಯೇದಿಡಯಾ ತಥಾ.
ముఖం సంయమ్య నాడీభ్యాం ఆకృష్య పవనం శనైః యథాలగతి కంఠాత్తు హృదయావధి సస్వనం పూర్వవత్ కుంభయేత్ ప్రాణం రేచయేదిడయా తథా. ముఖం సంయమ్య నాడీభ్యాం ఆకృష్య పవనం శనైః యథా లగతి కంఠాత్ తు హృదయావధి సస్వనం పూర్వవత్ కుంభయేత్ ప్రాణం రేచయేత్ ఇడయా తథా.
సరళా ప్రక్రియ అస్తి. కిం కరణీయం? ముఖం సంయమ్య నామ ముఖం పిధాయ ఇత్యర్థః. ముఖం పిధాయ, అతః అయం ప్రాణాయామః సర్వాత్మనా ముఖద్వారా న కరణీయః, తర్హి నాసికాద్వారా కరణీయః ఇత్యర్థః. ముఖం సంయమ్య, అనంతరం కంఠాత్ హృదయావధి యథా సస్వనం లగతి. కించిత్ అత్ర అన్వయ విశేష అస్తి, వ్యాఖ్యానుసారం మయా అన్వయ కృతః అస్తి. తదుచ్యతే కంఠాత్ హృదయావధి, కంఠప్రదేశాదారభ్య హృదయ పర్యంతం యథా సస్వనం, ఏన ప్రకారేణ స శబ్దం లగతి, తన్నామ స్పృశతి అథవా అనుభూయతే. కహ అనుభూయతే? పవనః. తథా నాడీభ్యాం, నాడీభ్యాం ఇది చేత నాడీ నాసికారంధ్రద్వయమస్తి కిల, నాసికారంధ్రాభ్యాం పవనం శనైః ఆకృష్య, పవనం వాయుం శనైః మందం ఆకృష్య ప్రాణం అంతః నీత్వా. తరి గృహీతం వా అత్ర ప్రథమ ప్రక్రియ కా ఇది చేత్, ముఖం సమ్యక్ పిధాతవ్యం, అనంతరం నాసాద్వార ద్వయమస్తి కిల, తద్వారా ప్రాణ అథవా వాయు అంతః ఆకృష్టవ్యః. యదా ప్రాణస్య నాసికారంధ్రద్వయద్వారా ఆకర్షణం భవతి, సచ ప్రాణ యదా అంతః ప్రవిశతి తదా కశ్చిత్ శబ్దః ఉత్పాదనీయః. సచ శబ్దః కంఠాత్ హృదయ పర్యంతం అనుభూతః స్యాత్ ఇతి. యదా సశబ్దం ప్రాణస్య అంతః గ్రహణం కర్తవ్యం, తదా ఏవం కశ్చిత్ శబ్దః క్రియతే ఇతి, తాదృశం సహ శబ్దః తదా కిం భవతి, కించిత్ థ్రోట్ రీజియన్ తద్ కన్స్ట్రైంట్ క్రియతే చేత్, కన్స్ట్రిక్ట్ క్రియతే చేత్, తచ శబ్దః తత్ర కంఠాత్ హృదయ పర్యంతం తస్య వైబ్రేషన్, ప్రాణేన సహ వాయునా సహ తస్య శబ్దస్యాపి అనుభవః భవేత్. వాయోః స్వీకారస్తావత్ నాసికారంధ్రద్వయాదేవ సా కరణీయా. స్పష్టం వా? అగ్రే ఏతావత్ పర్యంతం పూరకభాగః ఉక్తః, పూరకభాగః ఉక్తః, అనంతరం కిం కరణీయం? పూర్వవత్ ప్రాణం కుంభయేత్. పూర్వవత్ తన్నామ సూర్యభేదనే ఉక్త ప్రకారేణ, పూర్వవత్ శబ్దస్య సైవ అర్థః, సూర్యభేదనే ఉక్త క్రమేణ సూర్యభే కిం కరణీయం? ప్రాణం కుంభయేత్, వాయోః ధారణం కర్తవ్యం. సూర్యభేదనే కథం వాయోః ధారణం కర్తవ్యం ఇత్యుక్తమస్తి?
బంధేన సహ,
బంధేన సహ సర్వత్ర అస్తి, ఆకేశాద్ ఆనఖాగ్రాచ్చ నిరోధావధి కుంభయేత్ ఇది పూర్వత్ర ఉక్తమస్తి కిల. దృఢం సమ్యక్ గాఢతయా గభీరతయా ధారణం కరణీయం ఇత్యర్థః. అన్యత్ బంధేన సహ కర్తవ్యం ఇత్యత్ర నాస్తి మతద్వయం, అత్రాపి పునః దృఢం సహ కుంభకః కరణీయః ఇతి. తదేవ పూర్వవత్ కుంభయేత్ ఇతి, పూర్వోక్త ప్రకారేణ ఇతి. పూర్వవత్ కుంభయేత్ ప్రాణం తథా ఇడయా రేచయేత్. రేచనం కథం కరణీయం? ఇడానాడ్యా ఏవ కరణీయం, తన్నామ పింగళా నాడ్యాః పిధానం కరణీయం రేచన సందర్భే, ప్రాణస్య పరిత్యాగ సందర్భే. పింగళా నాడీ నామ వామనాడీ వా దక్షిణ నాడీ వా?
పింగళ నాడీ దక్షిణ నాడీ.
తరి దక్షిణ దక్షిణ నాడ్యాః పిధానం దక్షిణాంగుష్ఠేన కరణీయం, అనంతరం వామనాడ్యా వాయోః పరిత్యాగః కరణీయః. ఏషా ప్రక్రియా. ముఖం పిధాయ நாசாரந்திராபியாம் பிராணஸ்ய வாயோ சனைஹி அந்த ஸ்வீகரணம் கரணீயம் யதா ததா பிராண அந்த பிரவேஷ்யதே கண்டாத் ஹிருதய பர்யந்தம் யதா ஸ்வனஹ அனுபூயதே ததா தத்ர கண்டபாகஸ்ய சங்கோச்சஹ புரஸ்ஸரஹ கரணீயஹ சங்கோச்ச புரஸ்ஸரம் வாயோ ஸ்வீகரணம் கர்த்தவ்யம் ததனந்தரம் சம்யக் கும்பயித்வா சூரியபேதனோக்த பிரகாரேண வாயும் சம்யக் கும்பயித்வா கயாநாட்யா பிராண பரித்யக்தவ்யா
ஈடாநாட்யா
தன்னாம வாமநாட்யா வாயோஹோ பகிஹி நிஸ்ஸாரணம் ரேசனம் கரணீயம். நம்ம எதாவது புனா கிமர்த்தம் வதாமி இது சேத் பிரக்ரியாயாம் தத்ர பிரமோ ந ஸ்யாத் அதஹ மயா உச்சதே. அஸ்து ஏதாவதி உஜ்ஜாயி பவதி. உஜ்ஜாயி நாம கஹ அர்த்தஹ உத்கிருஷ்டதயா ஜயதி இதி. பஹுதா அஸ்ய வியுத்பத்திஹ மயா அன்விஷ்டா பரந்து அந்ததோ கத்வா தத்ர சாக்ஷாத் பதகத அவயவானாம் அர்த்தம் மனசி நிதாய விவரணம் கரணீயம். வியாக்யாசுது அர்த்தஹ அர்த்தஹ தஸ்ய வியுத்பத்திஹ மயா ந த்ருஷ்டஹ அதஹ விவரணம் கர்த்தவ்யம் சேத் பத பத அவயவானி த்ருஷ்ட்வா நம உச்சைஹி அதவா உத்கிருஷ்டதயா ஜயதி நாம நிவாரயதி அதவா கண்டகத சமஸ்யாம் ஜயதி இத்யர்த்தஹ தே உஜ்ஜாயி இத்யர்த்தஹ ததா விவரணீயம். கிரீதம் வா உஜ்ஜாயி சப்தஸ்ய அர்த்தஹ உத்கிருஷ்டதயா ஜயதி இதி நாம நிவாரயதி கண்டகத தோஷான் இதி அதவா அக்ரிம ஸ்லோகேஷு யே யே தோஷாஹ நிவாரியந்தே தேஷாம் தே தோஷாணாம் ஜயம் உத்கிருஷ்டதயா கரோதி இதி அர்த்தஹ கிராஹ்ய உஜ்ஜாயி பதஸ்ய. அஸ்து இதானீம் உஜ்ஜாயி பிராணாயாமஸ்ய பிரயோஜனம் கிம்? ஸ்லேஷ்மதோஷஹரம் கண்டே தேஹானலவிவர்தனம் நாடீஜலோதராதாது கத தோஷ விநாசனம் கச்சதா திஷ்டதா காரியம் உஜ்ஜாய்யாக்யந்து கும்பகம்.
ஸ்லேஷ்மதோஷஹரம் கண்டே தேஹானலவிவர்தனம் நாடீஜலோதராதாது கத தோஷ விநாசனம் கச்சதா திஷ்டதா காரியம் உஜ்ஜாய்யாக்யம் து கும்பகம். ஸ்லேஷ்மதோஷஹரம் கண்டே தேஹானலவிவர்தனம் நாடீஜலோதராதாது கத தோஷ விநாசனம் கச்சதா திஷ்டதா காரியம் உஜ்ஜாய்யாக்யம் து கும்பகம்.
ஸ்லேஷ்மதோஷஹரம் ஸ்லேஷ்மசப்தஸ்ய கஹ அர்த்தஹ கபஹ இத்யர்த்தஹ. கபஸ்ய கபகத கபஜன்யஹ யஹ தோஷஹ தஸ்ய நிவாரணம் கரோதி. நம குத்ர கண்டே கண்டே யதி ஸ்லேஷ்மதோஷஹ பவதி ஸ்லேஷ்மணஹ பிரபாவாத் கண்டே தோஷஹ கஸ்சித் யதி ஸ்யாத் கண்டே ஸ்லேஷ்மதோஷஹரம் அவகதம். அனந்தரம் தேஹானல விவர்தனம் தேஹே அனலஹ வர்த்ததே. அனலஹ நாம
ஜடர அக்னிஹி
அக்னிஹி சத்யம் ஜடர அக்னிஹி பவதி தஸ்ய விவர்தனம் கரோதி தஸ்ய உத்தீபனம் கரோதி. ஜடராக்னிஹி சம்யக் தீபிதஸ்சேத் தத்ர சரீரே தத்ர ஆஹார சரண பிரக்ரியா தஹ ஆரப்ய பிராணசஞ்சார பிரக்ரியா பர்யந்தம் நானாவித பிரக்ரியாஹ சமீச்சீனாஹ பவந்தி அஸ்மாத் தேஹானல விவர்தனம் கரோதி. அனந்தரம் அக்ரிமம் தத் ப்ருஹத் பதமஸ்தி நாடி ஜலோதரா தாது கத தோஷ விநாசனம் இதி. வியாக்கியானுசாரம் அஸ்ய விவரணம் கர்த்தவ்யம் சேத் நாடி பசியதோ அந்தே அந்தே கிம் அஸ்தி கத தோஷ விநாசனம் இத்யஸ்தி. பிரத்யேகம் தத்ர த்வந்த்வாந்தே ஸ்ரூயமாணம் பதம் பிரத்யேகம் அபிசந்தத்தே இதி வியாக்கரணே கச்சித் நியமஹ அஸ்தி. ததஹ நாடி ஜல உதர ஆதாது இத்யேதேஷாம் சர்வேஷாம் தத்ர சமாசா அஸ்தி பஹுபதத்வந்த்வஹ அஸ்தி. நாடீ ச நாடீ இதி ந வக்தவ்யம் நாட்யஹ இதி வக்தவ்யம் நம நானா நாட்யஹ சந்தி ஶரீரே. நாட்யஶ்ச ஜலஞ்ச உதரஞ்ச ஆதாதவஶ்ச நாடீஜலோதரா தாதவஹ நாடீஜலோதரா தாதுஷு கதஹ நாடீஜலோதரா தாது கதஹ கதாஹ இதி வக்தவ்யம். நாடீஜலோதரா தாது கதாஹ சதே தோஷாஹ நாடீஜலோதரா தாது கத தோஷாஹ नाडीजलोदराधातुगतदोषाणां विनाशनं नाडीजलोदराधात् तथापि तत्र बहुव्रीहिः करणीयः। तत्र उज्जायाख्यं कुम्भकम् इत्यस्य विशेषणमस्ति, तर्हि किं करणीयं? बहुव्रीहिः करणीयः। अत्र नाडीजलोदराधातुगतदोषाणां विनाशनं येन तत् नाम व्यतिरेकबहुव्रीहिः भवति, परन्तु एकवारं तत्र व्याकरणे अपि किञ्चित् चिन्तनीयं। सामान्यतः समानाधिकरण बहुव्रीहिः एव, व्यधिकरणबहुव्रीहिः न भवति इति वदन्ति, तथापि एवं भाति। अग्रे परिष्कारः अस्ति चेत् वदामि। नाडीजलोदराधातुगतदोषाणां विनाशनं येन तत् नाडीजलोदराधातुगतदोषविनाशनम् इति करणीयम्। यतो तत् नाडीजलोदराधातुगतदोषविनाशनं किम्?
उज्जायाख्यं कुम्भकम्।
उज्जायाख्यं कुम्भकम् इति, तस्मात् मया अत्र बहुव्रीहिः अभिप्रेतः। एतावता विग्रहः दृष्टः, इदानीम् अर्थः द्रष्टव्यः। तर्हि किमर्थं द्वन्द्वस्य विषये मया उक्तम् इति चेत्, द्वन्द्वान्ते श्रूयमाणस्य पदस्य प्रत्येकं तत्र सम्बन्धः करणीयः। गतदोषविनाशनम् इत्यस्ति किल, तत् नाडीगतदोषविनाशनम्। अनन्तरम् अग्रे
जलगतदोषविनाशनं, उदरगतदोषविनाशनं, आधातुगतदोषविनाशनं
इति स्वीकरणीयम्। अवगतं वा? नाडीगतदोषविनाशनं तु स्पष्टं, नानानाड्यः सन्ति शरीरे, येषु प्राणः सञ्चरति, नाडीनां शुद्धिः आवश्यकी, तद् नाडीशुद्धिः उज्जायी अपि भवति इति ज्ञायते। यतोहि तत्र वायोः तत्र सङ्घर्षः भवति किल, सस्वनं तत् वित् फ्रिक्षन् क्रियते इति कारणेन सः स्वनः, स्वनपुरःसरं प्राणस्य स्वीकारः अस्ति किल, तेन किं भवति इति चेत् विद्यमानानां दोषाणाम् अपकर्षः, नाडीषु विद्यमानः दोषः निवार्यते इति स्वीकरणीयम्। अनन्तरं जलगतदोषविनाशनं, जले दोषाः भवन्ति, कदाचित् नाम उष्णकाले शीतजलं पीतम्, अथवा शीतकाले उष्णजलं पीतम्, अथवा जलेषु कृमयः कदाचित् भवन्ति, एवम् आदि समस्याः भवन्ति किल, ते जलगतदोषाः, तेषां जलगतदोषाणां निवारणम्। अनन्तरम् आधातु इति, नाडी जल उदर आधातु, नाम धातवः सप्त शरीरे, रस रक्त मांस मेदो मेदः अस्थि मज्जा शुक्रः इति, अथवा शुक्रम् इति, इत्येवम् एते सप्तधातवः शरीरनिर्मातारः, पूर्वमुक्तं किल, एते सप्तधातवः, तेषां सप्तधातूनाम् आसमन्तात् आधातु, आधातु इति चेत् आसमन्तात् इत्यर्थः समग्रतया इति, सप्तसु अपि धातुषु विद्यमानानां दोषाणाम् आसमन्तात् निवारणं करोति इत्यर्थः। अवगतम्? नाडीजलोदराधातुगतदोषविनाशनम् इति तदेव तस्य अर्थः, नाडीजलोदराधातुगतदोषविनाशनम्। अन्यदपि उच्यते, आसमन्तात् देहे वर्तमानाः धातवः आधातवः इति, नाम समग्रं शरीरं व्याप्य के सन्ति? धातवः एव। अयम् इदं शरीरम्, अयं देहः धातुमयः एव किल, तस्मात् धातुमयः अयं देहः, तत्र कोणे कोणे विद्यमानाः ये धातवः सर्वेषामपि विनाशनं करोति इत्यर्थः। तत्र सोऽपि आधातवः व्याख्यायां स एव अर्थः दत्तः अस्ति। अत्र अस्य प्राणायामस्य वैशिष्ट्यं किम् इति चेत्, गच्छता तिष्ठता कार्यम् इति, अयम् एकः प्राणायामः एव स्थित्वापि कर्तुं शक्यते, व्रजता अपि कर्तुं शक्यते। सामान्यतः अथासने दृढे योगी वशीहितमिताशनः प्राणायामान् समभ्यसेदिति आदिमश्लोकः अस्ति अस्य पादस्य। प्राणायामः सर्वेपि कथं कर्तव्याः?
आसने दृढं स्थित्वा एव,
उपविश्य कर्तव्याः इति। एतद् अयमेकः प्राणायामः यः स्थित्वापि कर्तुं शक्यः, गच्छता अपि कर्तुं शक्यः, गच्छता तिष्ठता कार्यं कर्तुं शक्यते, उज्जायाख्यं तु कुम्भकम्। परन्तु व्याख्यातारः एकं विषयं वदन्ति, अत्रापि कुम्भकानुष्ठानमस्ति किल, परन्तु उपविश्यकरणसमये एव अत्र कुम्भकानुष्ठाने किं करणीयं बन्धादिकम् अनुष्ठातव्यं स्थित्वा अथवा गच्छता यदा अयम् उज्जायी कुम्भकभेदः क्रियते तदा किं न करणीयं
बन्धाः न करणीयाः
सत्यं बन्धाः न कर्तव्याः इति तम् अर्थविशेषं वदति व्याख्याता अस्तु अयं द्वितीयः प्राणायामः अधुना तृतीयं प्राणायामं पश्यामः सीत्कारी तत्र किं करणीयं केवलं पादद्वयं पठामः तत्रैव सीत्कारी प्रक्रिया अस्ति अग्रे सर्वं फलं फलं सर्वम् एकत्र अनन्तरं पश्यामः सीत्कां कुर्यात् तथा वक्त्रे घ्राणेनैव विजृम्भिकां
सीत्कां कुर्यात् तथा वक्त्रे घ्राणेनैव विजृम्भिकां सीत्कां कुर्यात् तथा वक्त्रे घ्राणेन एव विजृम्भिकाम्
सीत्कां कुर्यात् सीत् सीत् इति शब्दः अस्ति इति अस्ति किल नाम यत्किञ्चित् कटु खाद्यते चेत् वयं कथं शब्दं कुर्मः इति शब्दं कुर्मः किल स एव शब्दः सीत् इति पदेन अत्र नाम अक्षररूपः अक्षररूपं तस्य दत्तमस्ति तादृशं सीत् इति शब्दं कुर्यात् सीत्कां कुर्यात् कुत्र तादृश सीत् शब्दः करणीयः इति चेत् वक्त्रे वक्त्रे सीत् इति शब्दं करोतु इति पूर्वत्र उज्जायी अनुष्ठानसमये तत्र सस्वनं स च स्वनः कुत्र करणीयः कण्ठात् हृदय पर्यन्तं तत्र उक्तं किल एवमेव अत्र सीत् इति शब्दः कुत्र करणीयः इति चेत् वक्त्रे वक्त्रं नाम मुखं वक्त्रे सीत्कां कुर्यात् तर्हि पूरकं वक्त्रद्वारा करणीयं वायोः स्वीकारः कुतः करणीयः वक्त्रात् करणीयः सस्वनमेव करणीयः तच्च स च स्वनः कथं भवेत् इति चेत् सीत् इति शब्दः तत्र भवेत् इति अनन्तरं तथा तदनन्तरं किं करणीयं घ्राणेन एव विजृम्भिकां घ्राणशब्दस्य नासिका इत्यर्थः नासिकया एव विजृम्भिकां विजृम्भिकाम् इति चेत् रेचकम् इत्यर्थः इति वक्त्रेण प्राणस्वीकारः नासिकया प्राणस्य अथवा वायोः रेचनं करणीयम् इति प्रक्रिया उक्ता परन्तु अत्र प्रश्नः आयाति एतत्तु कुम्भकप्रकरणं तर्हि कुम्भकं कुत्र अस्ति अत्र कुम्भकं तु श्लोकेन उक्तमस्ति तर्हि कुम्भकं कुत्र इति चेत् प्रश्ने एव उत्तरमस्ति यतः इदं कुम्भकप्रकरणम् अनुक्तमपि कुम्भकं ग्राह्यम् इत्यर्थः प्रकरणशः अवगन्तव्यम् इति व्याख्याता कथयति तर्हि वक्त्रात् प्राणस्य आकर्षणं कृत्वा कुम्भकं कृत्वा अनन्तरं नासिकया प्राणस्य रेचनं करणीयम् इत्यर्थः अतः कुम्भकप्रकरणादेव पश्यतु एतदेव व्याख्यानस्य वैशिष्ट्यमिति केवलं श्लोकं पठित्वा तस्य अनुवादं वा पठित्वा वयं गच्छामः तर्हि अत्र क्लेशः भवति किल अत्र कुम्भकानुष्ठानम् अस्ति वा नास्ति वा इति प्रश्नः आयाति तर्हि दोषेण अनुष्ठानं कृतं भवति एवम् अधीत्य व्याख्यानम् अन्तरा एव अधीत्य केवलं उपरितनश्लोकः तस्य अनुवादः च दृश्यते तथा तद् अधीत्यैव कश्चित् अनुष्ठातुं प्रवर्तते चेत् समस्या अतः एव गुरुमुखात् अध्येतव्यम् इति गुरुमुखात् तदपि व्याख्यादिकं परिशील्य तस्य प्रक्रिया सम्यक् अवगन्तव्या अत एव व्याख्यानं शरणीकरणीयम् इति अस्तु अतः इदानीं व्याख्याने इतोपि केचन विषयाः उक्ताः सन्ति इदानीं मुखे सीत् इति शब्दः करणीयः कथ तत्र करणसन्दर्भे तत् कथं करणीयम् इति किञ्चित् तत्र अर्थविशेषः उच्यते ओष्ठयोरन्तरे संलग्नया जिह्वया तत्र ओष्ठयोरन्तरे संलग्नया जिह्वया इति द्वयोः अधरयोः मध्ये जिह्वा स्थापनीया इति उक्ता अस्ति. व्याख्याने किमस्ति? द्वयोः अधरयोः मध्ये जिह्वा स्थापनीया, अनन्तरं सीदिति शब्दः करणीयः इति. परन्तु द्वयोः अधरयोः मध्ये अन्तः जिह्वा स्थापनीया इति उक्तं चेदपि अत्रापि किञ्चित् परिष्कृत्य स्वीकरणीयम्. जिह्वाग्रं राजदन्तस्य पृष्ठतः स्थापनीयम्. अनुष्ठाने कश्चित् भेदः भवति अस्य. द टिप् आफ् द टङ्ग् शुड् बि फिक्स्ड् आन् द फ्रण्ट् टीत् आट् द बेक् सैड् आफ् द फ्रण्ट् टीत्. तत्र जिह्वां बद्ध्वा इति प्राणस्य स्वीकारः करणीयः. प्रक्रिया गृहीता वा? कृष्णमाचार्याः एवमेव पाठयन्ति. पश्यतु, अत्र पुनः पश्यतु, ग्रन्थे मूलग्रन्थे कुम्भकं नास्ति. व्याख्याने अतः व्याख्यानात् तदवगतं. व्याख्याने ओष्ठयोः अन्तरे जिह्वा स्थापनीया इत्युक्तं, परन्तु तत् तथैव अनुष्ठातुं न शक्यते. न शक्यते. पश्यतु, तत्र ओष्ठयोः अन्तरे तत्र किञ्चित् शक्यते, परन्तु श्रमेणैव तद्भवति. ओष्ठयोः अन्तरे जिह्वां स्थापयित्वा, मध्ये मध्ये ओष्ठं जिह्वां स्थापयित्वा तत्र प्राणः स्वीकरणीयः इति चेत् किञ्चित् कष्टं भवति. इतोपि सरलं कथं भवति इति चेत्, जिह्वा द टिप् आफ् द टङ्ग् शुड् बि लाक्ड् बिहैण्ड् द फ्रण्ट् टीत्. तदनन्तरं श्वासस्य स्वीकारः क्रियते चेत् सौकर्यं भवति. इत्युक्ते व्याख्यापेक्षयापि अनुष्ठानं महत्. मूलग्रन्थापेक्षया व्याख्यानं परिशीलनीयं. व्याख्याने उक्तप्रकारेण कदाचित् आस् पर् द टेक्स्ट् बुक् कदाचित् न शक्यते. तदा किं करणीयम्? अनुष्ठातारः गुरवः ये सन्ति ते कथं वदन्ति इति श्रुत्वा तदनुसारम् अनुष्ठातव्यं. द्वयस्यापि उदाहरणम् अत्रैव अस्ति. एवम्, अत एव पुस्तकम् अधीत्य न करणीयम् इति वदन्ति. अतः घ्राणेन एव. हा, अनन्तरं घ्राणेन इत्युक्तमस्ति. वक्त्रे इति उक्तं किल, तस्य इदं स्पष्टीकरणं. सीत्कां कुर्यात् तथा वक्त्रे. वक्त्रे यदा श्वासस्य स्वीकारः करणीयः तदा जिह्वा कुत्र स्थापनीया इत्यादि अर्थविशेषः व्याख्याने उक्तः. एवमेव तत्र घ्राणेन विजृम्भिकां कुर्यात् इत्यस्ति. नासिकया प्राणस्य त्यागः करणीयः अथवा रेचनं करणीयं. कया नासिकया इति प्रश्नः. एकवचनमेव किल अस्ति. घ्राणाभ्याम् इत्युक्तं वा? तर्हि एकेनैव नाम एकमेव घ्राणम् अथवा घ्राण नासिकापुटाभ्याम् इति तु न उक्तम्. एकवचनमस्ति. तर्हि केन? एकेन वा, द्वाभ्यां वा, कथम् इति चेत् तत्र व्याख्यातारः स्पष्टीकुर्वन्ति. नासिकारन्ध्रद्वयद्वारापि, सैमल्टेनियस्लि थ्रू बोत् द नोस्ट्रल्स् इत्यर्थः. अतः घ्राणेनैव विजृम्भिका. पश्यतु, वाक्यं लघु परन्तु विवरणं विस्तृतं भवति. तत्र टेक्निक् वयं पश्यामः चेत् बहु विवरणम् अस्ति. सीत्कां कुर्यात् तथा वक्त्रे घ्राणेनैव विजृम्भिकाम्. अत्र पूरकरेचकयोः एव उल्लेखः अस्ति. इदं कुम्भकप्रकरणम् इति कारणेन कुम्भकमपि उक्तम् इति मन्तव्यम् इति व्याख्यातारः. एतावत् स्पष्टम्. इतः परम् अस्य सीत्कारी प्राणायामस्य सीत् सीत् इति अत्र शब्दः अस्ति इति कारणेन अयं प्राणायामः सीत्कारी इति नाम आप्नोत्. अनन्तरम् अस्य प्रयोजनम् अग्रे उच्यते. एवमभ्यासयोगेन कामदेवो द्वितीयकः योगिनी चक्रसम्मान्यः दृष्टिसंहारकारकः न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते भवेत् सत्त्वं च देहस्य सर्वोपद्रववर्जितः अनेन विधिना सत्यं योगीन्द्रो भूमिमण्डले. तन्नाम चतुःपञ्चाशत्तमश्लोकस्य तृतीयचतुर्थपादौ, पञ्चपञ्चाशत्तमश्लोकः, षट्पञ्चाशत्तमश्लोकः, नाम सार्धश्लोकद्वयेन अस्य प्रयोजनम् उक्तमस्ति. पठ्यता.
एवमभ्यासयोगेन कामदेवो द्वितीयकः योगिनी चक्रसम्मान्यः सृष्टिसंहारकारकः न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते भवेत् सत्त्वं च देहस्य सर्वोपद्रववर्जितः अनेन विधिना सत्यं योगीन्द्रो भूमिमण्डले। एवम् अभ्यासयोगेन कामदेवः द्वितीयकः, योगिनीचक्रसम्मान्यः, सृष्टिसंहारकारकः, न क्षुधा न तृषा निद्रा नैव न एव आलस्यं प्रजायते भवेत् सत्त्वं च देहस्य सर्वोपद्रववर्जितः अनेन विधिना सत्यं योगीन्द्रः भूमिमण्डले।
तर्हि पश्यतु, प्रक्रिया लघ्वी, एकेन पादद्वयेन प्रक्रिया उक्ता, परन्तु सार्ध श्लोकद्वयेन प्रयोजनम् उक्तमस्ति। एवम् अभ्यासयोगेन, एवं नाम अनेन प्रकारेण अभ्यासयोगेन, योगस्य अभ्यासेन इत्यर्थः। अनेन प्रकारेण यः अभ्यासः योगस्य क्रियते तेन किं भवति? अनेन प्रकारेण नाम शास्त्रोक्तप्रकारेण इति क्रियते। द्वितीयकः कामदेवः, कश्चित् कामदेवः अस्ति रतिपतिः देवगणे, अस्य अनुष्ठाता यः अस्ति सः अपि कामदेवतुल्यत्वं प्राप्नोति। कामदेवतुल्यत्वं नाम किम् इति चेत् रूप लावण्यसिद्धिः भवति इत्यर्थः। उत्तमं रूपं प्राप्यते, तत्रापि उत्तमं सौन्दर्यं प्राप्यते इत्यर्थः। कस्य? तीत्कारीं यः अभ्यस्यति। रूपम् इति वयं जानीमः सुन्दरं रूपम् इति, लावण्यम् इति चेत् तत्र सिमेट्रि इन् मूमेण्ट् इत्यर्थः। सम्यक् शरीरे इदानीं जनाः केचन गच्छन्ति, वयं पश्यामः किल कथं गच्छन्ति इति चेत्, यदा पादः किञ्चित् कुण्ठितमिव तेषां गमनं भवति किल, सिमेट्रिकल् मूमेण्ट्स् भवति, हस्तः चलति इत्यादि, तादृशं सर्वं न भवति। रूपमपि सुन्दरं भवति गमनागमनादि सन्दर्भे अपि, तत्र लावण्यमपि त्यज्यते शरीरे गमने इति। तत्र कुण्ठितगति गतिमत्वम्, अनपेक्षित अवयवचालनम् इत्यादिकं न भवति। ग्रेस्फुल् इत्यर्थः, ग्रेस्फुल् मूमेण्ट् सिद्ध्यति इत्यर्थः। नाम कामदेवशब्दस्य अन्योपि अर्थः अस्ति, नाम रूपलावण्यसम्पन्नो भवति इत्यर्थः। कामदेवो द्वितीयकः इति चेत् एतादृश अनुष्ठाता सुन्दरं रूपं शरीर अवयव सौन्दर्यं प्राप्नोति, द्वितीयं तस्य गमनादिकमपि ग्रेस्फुल् भवति इति एकः अर्थः। अन्योपि अर्थः पारमार्थिकः अस्ति, एतत्तु लौकिकः अर्थः, पारमार्थिकः कश्चित् अर्थः अस्ति। कामदेवशब्दः विष्णुसहस्रनाम्नि पठितः अस्ति वा? कामदेवः कामपालः कामीकान्तकृतागमः इति। कामदेवः इति चेत् परमात्मा विष्णुः इत्यर्थः। सोपि अर्थः अस्ति किल, विष्णुसहस्रनाम स्वयं पठितं किल, तदपि नाम तस्मात् यथा विष्णुः तद्वत् तादृश परमात्मतुल्यत्वं भवति, परमात्मा एकः एव, तथापि अपरः परमात्मा भवति इत्यर्थः अपि ग्रहीतुं शक्यते। तत् इदं तु मम व्याख्यानं, मम कश्चित् पारमार्थिकः अर्थः वक्तव्यः किल, सर्वमपि लौकिकदृष्ट्या, इदं योगशास्त्रं, तस्मात् लौकिकः कश्चित् अर्थः, नाम रूपलावण्यादि अर्थः ज्योत्स्नाकारेण उक्तः अस्ति। किञ्चित् पारमार्थिकरूपेण चिन्त्यते चेत् आमदेवो नाम विष्णुपर्यायशब्दः, विष्णुर्नाम परमात्मा व्यापनशीलः, तादृश मनसः ऐकाग्र्यं प्राप्य परमात्मानं ध्यातुं समर्थः भवति इत्यर्थो अपि ग्रहीतुं शक्यः इति भवतु। अतः कामदेवो द्वितीयकः। अनन्तरम् अग्रिमप्रयोजनं, योगिनी चक्रसम्मान्यः, अत्रापि महद्विवरणं करणीयमस्ति। योगिनी चक्रं, योगिन्यः सन्ति, योगी योगिनी स्त्रीलिङ्गप्रयोगः। योगिनी शब्दस्य कः अर्थः? अत्र व्याख्यातुः साह्यं न लभ्यते, यतोहि अधिकं विवरणम् अत्र नास्ति। तर्हि मया तद्विषये किञ्चित् अधीतं। योगिनी इति योगिन्यः भवन्ति, चतुष्षष्टियोगिन्यः, एषा देवी अस्ति किल, शक्त्याः चतुष्षष्टि उपदेवताः भवन्ति। तन्त्रशास्त्रे देवी अस्ति, शक्तिः अस्ति, शक्त्याः चतुष्षष्टि उपदेवताः भवन्ति, तासां किमिति नाम? योगिन्यः इति नाम। योगिनी योगिन्यौ योगिन्यः, चतुष्षष्टियोगिन्यः याः उपदेवताः शक्त्याः सहायिकाः नानाकर्मसु ताभिः सम्मान्यः ताभिः पूज्यः भवति एषः नाम अत्यन्तं शक्त्याः नैकट्यं प्राप्नोति यतोहि तदेव उचितं शक्तिशब्दस्य अपरोपि अर्थः अस्ति कुण्डलिनी इत्यर्थः कुण्डलिनी नैकट्यमपि प्राप्नोति इत्यर्थः क्रमेण कुण्डलिनी उन्मुखतया प्रवर्तते इत्यर्थमपि भवति योगिनी चक्रसम्मान्यः चक्रशब्दस्य गणः इत्यर्थः योगिनी समूहः योगिनी गणः योगिनी गणेन सम्यक् मानितः भवति येन शक्त्याः सामीप्यं तन्नाम कुण्डलिन्याः सामीप्यं प्राप्तुम् अर्हति इत्यर्थः अनन्तरं सृष्टिसंहारकारकः सृष्टिं संहारमपि कर्तुं तादृशशक्तिः तस्य लभ्यते इति सृष्टिं संहारञ्च एतत् सर्वं प्रायः अतिशयोक्तिः इति भवितुमर्हति महती शक्तिः अनेन प्राप्यते इति अर्थः तात्पर्यं किम् अत्यन्तं शरीरशक्तिसम्पन्नो भवति इति तात्पर्यं तावदेव सृष्टिं संहारं करोति वा न वा न जानीमः
अस्मिन् श्लोके सृष्टि ब्रह्मण कर्म संहारः शिवस्य कर्म पूर्वस्मिन् श्लोके विष्णुवत् सह कामदेववत् भवति
सत्यं पश्यतु प्रथमश्लोके कामदेवः इत्यत्र विष्णुः योगिनीचक्रसम्मान्यः इत्यत्र शक्तिः सृष्टिसंहारकारकः इति शिवः शिवः शक्तिः विष्णुः एतत् त्रयमपि आगतमस्ति अत्र अतः सीत्कारीप्रक्रिया अत्यन्तं विशिष्टा देवत्रयस्यापि अत्र सान्निध्यमस्ति अनन्तरं न क्षुधा किञ्च न क्षुधा क्षुधा नाम बुभुक्षा न भवति न तृषा पिपासा न भवति निद्रापि न भवति अनन्तरं नैव आलस्यं प्रजायते आलस्यमपि व्यपगच्छति इति आलस्यं व्यपगच्छतु नाम सम्यक् किमर्थं बुभुक्षा गच्छेत् किमर्थं पिपासा गच्छेत् किमर्थं निद्रा गच्छेत् किं चिन्तयति भवति एतेषु दिनेषु किमर्थं योगं कुर्वन्ति बहवः तत्र योगथेरपि निमित्तं ये आगच्छन्ति ते वदन्ति ओ अपिटैट् एव नास्ति अनन्तरं निद्रा एव नास्ति कृपया कमपि योगं पाठयतु येन मम अपिटैट् वर्धेत मम बुभुक्षा वर्धेत योगं पाठयतु येन च अहं सम्यक् निद्रां कुर्याम् इति खलु प्रार्थयन्ते अधुना चिकित्सा योगचिकित्सा पराः अत्र तु किम् उच्यते चीत्कार्यं करोतु निद्रा गच्छति चीत्कार्यं करोतु बुभुक्षा न भवति अस्य कोऽर्थः
तमोगुणस्य उद्रेकः अल्पः भवति इति वा
सम्यक् गुड् गेस् न गुड् गेस् परन्तु किम् इति चेत् पश्यतु एतत्तु मोडर्न् काण्टेक्स्ट् मध्ये न चिन्तनीयम् एषः ग्रन्थः पञ्चशतवर्षात् वर्षप्राचीनः तदानीम् अस्य उद्देश्यं किम् इति चेत् कश्चित् योगी यदा बुभुक्षया तृष्णया निद्रया च बाधितः भवति सः निरन्तरं तस्य योगाङ्ग अनुष्ठाने निरन्तरायं निरन्तरं तत् यदि प्रवर्तनं कर्तुं शक्नुयाद् वा ते अपि विघ्नाः एव भोजनार्थम् अन्विष्य गन्तव्यं जलपा उत्तम जलमूलं स्रोतः यत् तदन्विष्य गन्तव्यं तत्र निद्रा आगच्छति चेत् पुनः भङ्गः अतः एतेन क्षुधा बुभुक्षा निद्रा निवृत्त्या अखण्डतया योगानुष्ठाने प्रवृत्तिं प्राप्तुं योगी शक्नोति इत्यर्थः सीत्कार्याः अपि कथम् अनुष्ठानादिकं कर्तव्यं पूर्वमपि दृष्टवन्तः 80 times इन् द मार्निङ्ग् 80 times तत्र मध्याह्ने अनन्तरं सायङ्काले 80 times रात्रौ 80 एवं क्रियते चेत् एतत् सर्वं भवति तर्हि इदानीम् अहं सीत्कार्यं करोमि चेत् निद्रा तृष्णा सर्वं नश्यति वा इति पृच्छ्यते चेत् चिन्ता एव मास्तु किमर्थं जनाः विल् नाट् डू 240 times आर् 320 times पर् डे दे विल् डू अट् द मोस्ट् 10 times इन् द मार्निङ्ग् अण्ड् 10 times इन् दि आफ्टर्नून् तस्मात् तत्सर्वं न भवति येन यत् यत्किञ्चित् टेन्शन् इत्यादि भवति तत्सर्वं निवृत्तं भवति ओन्ली 10 times क्रियते चेत् गभीरतया इदं सर्वं प्रयोजनं प्राप्तव्यं चेत् तावदनुष्ठानं करणीयं ज्ञातं वा अतः क्षुधा तृष्णा निद्रा निवृत्तिः परमयोगिनां नाम परमोद्देश्यम् उद्दिश्य ये प्रवर्तमानाः तेषां कृते अपेक्षिता अर्जुनस्यापि किं नाम अस्ति गुडाकेशः इति एवमुक्तो श्रीकेशः गुडाकेशेन भारत इति प्रथमाध्याये भवति। गुडाकेशशब्दस्य ऋषिकेशशब्दस्य अर्थः कः? ऋषिकाणाम् ईशः, ऋषिकाणि नाम इन्द्रियाणि इत्यर्थः। इन्द्रियाणां नाथः नाम इन्द्रियाणां निग्रहं यः सम्यक् सम्पादितवान् सः ऋषिकेशः। कः? कृष्णः। गुडाकेशः नाम कः? अर्जुनः। किमर्थं तस्य गुडाकेशः इति नाम इति चेत् गुडाकायाः ईशः इति। गुडाका नाम निद्रा, निद्रायाः ईशः, निद्रां यः निर्जितवान्। वयं पठामः किल किरातार्जुनीयम् इत्यादिषु सः कथं घोरतपस्वी अर्जुनः, घोरं तपस्तप्त्वा पाशुपताद्यस्त्राणि सः सम्पादितवान्। तथा सर्वं सिद्धिः, तपसः सिद्धिः प्राप्तव्या चेत् कथम् अनुष्ठातव्यं? क्षुधा, तृष्णा, निद्रा इत्यादि परित्यज्य करणीयम्। तदर्थम् एतादृशप्राणायामाः सः कुर्वन्ति। अतः न क्षुधा, न तृषा, निद्रा, नैव आलस्यं प्रजायते इत्युक्तं। स्पष्टम्? अनन्तरं भवेत् सत्त्वञ्च देहस्य, देहस्य सत्त्वं भवति। देहस्य सत्त्वं भवति इति चेत् कोऽर्थः?
देहस्य पुष्टिः।
सत्यं। जनाः किं कुर्वन्ति? सत्त्वम् इति पदं श्रुतं चेत् योगशास्त्रे ओ सत्त्वगुणः वर्धते इति स्वीकुर्वन्ति। नैव, सत्त्वशब्दस्य नाना अर्थाः सन्ति। सत्त्वम् इति शब्दस्य अन्तःकरणम् इति अर्थः अस्ति, सत्त्वम् इति शब्दस्य सत्त्वगुणः इति अर्थः अस्ति, सत्त्वम् इति शब्दस्य शक्तिः इत्यपि अर्थः अस्ति। अस्मिन् सन्दर्भे देहस्य सत्त्वं भवति इति चेत् देहे शक्तिः, अन्तःशक्तिः वर्धते इत्यर्थः। भवेत् सत्त्वञ्च देहस्य सर्व उपद्रववर्जितः। अन्ये ये उपद्रवाः नाम भूतभौतिकेभ्यः उपद्रवाः आयान्ति, प्राणिनां बाधा, अन्यविध केलामिटीस् यद्यद् भवति तत्सर्वमपि निवारितं भवति प्राणबलेन इति।
तापत्रयम् इति स्वीकर्तुं शक्यते वा?
तत्तु शक्यते, विशिष्य भूतभौतिकताप तापाः। उपद्रवाः इति चेत् ते एव, इतरप्राणिभ्यः चोरव्याघ्रादिभयमस्ति किल, तादृशपीडा आदिभौतिकपीडाः न भवन्ति इत्यर्थः। भूतभौतिक उभयमपि नाम परस्परं भूतानि सन्ति चोरव्याघ्रादयः, अनन्तरं भूतानि पञ्चमहाभूतानि, तेभ्यः अपि पीडामेषः न अनुभवति, उपद्रववर्जितः। तापत्रयस्य अपि स्वीकर्तुं शक्यते, आदिदैविक, आदिभौतिक, आध्यात्मिक, तत्र कोऽपि क्लेशः न भवति, कापि बाधा नास्ति। सम्यक्। अतः तादृशतापत्रये विवर्जितः भवति। एकस्य सीत्कारी प्राणायामस्य एतावत् प्रयोजनम् उक्तमस्ति, अत्र स्थगयामः। श्री आदिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या, विद्या च ते प्रोन्नतराजयोगमारोढुमिच्छोरतिरोहिणीव।